गतवर्गे अस्माभिः किं कृतं तत्र इकारान्तधातुषु मध्ये इङ्गतौ समाप्तः तदनन्तरम् इङ् अध्ययने इक् स्मरणे अपि समाप्तः तत्र इङ्गतौ अपि च इक् स्मरणे तत्र किम् आसीत् नूतनम् इणोयण् इणोयण् इति सूत्रेण इण् धातु कृते यण् आदेशः भवति अजादिप्रत्ययपरे अजादि अपित् प्रत्ययपरे तदनन्तरम् इण्वद् इक वाच्यम् इण्वद् इक इति सूत्रेण इक् अपि इण्वत् भवति इक् अपि इण्वत् भवति इक् अपि इण्वत् भवति तत्र यथा इण् मध्ये इणोयण् अस्ति तथैव इक् मध्ये अपि भवति इक् स्थाने यण् आदेशः भवति इति अस्ति अजादि अपि प्रत्ययपरे तदनन्तरं किमस्ति हा तथा एतावत्पर्यन्तम् अस्माभिः पठितं तदनन्तरम् इङ् मध्ये तु इणोयण् इति सूत्रं कार्यं न करोति तत्र केवलम् इण् धातु कृते अस्ति इङ् मध्ये सामान्यसूत्रम् अचिष्णु धातुभ्रुवां युवोर्यङ् उवङ्गौ इति कार्यं करोति नाम यदा गुणः न भवति तदा किमस्ति तदा इङ् स्थाने इयङ् आदेशः भवति इति अस्ति इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा अस्तु नास्ति चेत् इदानीम् अग्रे गच्छामः इदानीम् अग्रे तत्र वि धातु अस्ति तत्र वि धातु मध्ये अपि किमपि नास्ति तत्र वि धातु तु अतीव सामान्यधातुः अस्ति अदादिगणे अधिकारं धातुः तत्र अहमपि भवन्तः पृच्छामि तत्र मीना महोदय वि धातु पित् प्रत्ययः अस्ति चेत् किं भवति
हलादिपित्सु गुणः भवति
न हा गुणः भवति चेत् किं भवति वियोगः ति
वियोगः ति वे योगः के योगः वेति
सम्यक् अस्तु तदनन्तरं विजया महोदय अजादि पित् प्रत्ययः अस्ति चेत् किं भवति
तत्र अपि गुणः भवति खलु अतः तत्र वियोगः आणि वे इति भवति गुणः भूत्वा वे आणि अत्र अयादेशः भवति युप् वकारयोगः ऐ अनन्तरम् आणि योग योजनेन वयाणि इति भवति
सम्यक् अस्तु तदनन्तरं रघुपतिमहोदय हलादि अपि प्रत्ययः अस्ति चेत् किं भवति
हलादपि तत् किमपि कार्यं नास्ति अपि प्रत्यय किमपि नास्ति महोदय एतत् केवलं वर्णमेलमस्ति वीतः
वियोगः तः वीतः
वीतः वीथा वीथा इति वि वा वीमा इति तत् सर्वत्र कार्यं नास्ति
तदनन्तरं विजि महोदय अजादि अपि अस्ति चेत् किं भवति
अजादि अपि अस्ति चेत् अत्रापि गुणकार्यं न भवति किन्तु अचिष्णु धातु वां व्योरिवङ् इवङ् इति सूत्रेण वियोगः अन्ति इव् ई स्थाने ए इति आदेशः भवति तदनन्तरं वर्णमेलनं स वियन्ति इति
तर्हि अत्र किमपि नूतनकार्यं नास्ति यत्र गुणः भवति तत्र गुणः करणीयः यत्र गुणः नास्ति चेत् अचिष्णु धातु ब्रुवां युवोर्य उवङ्गौ इति सूत्रेण अजादि अपि प्रत्ययपरे इयङादेशः भवति तदनन्तरं केवलं वर्णमेलनम् अथवा सन्धिकार्यम् एव अस्ति तत्र किमपि नास्ति इति अस्ति सामान्य इकारं धातुः अस्ति तत्र किमपि नूतनं सूत्रं नास्ति अस्तु इदानीम् अग्रे गच्छामः तत्र नूतनकार्यमस्ति यत्र तत्र अग्रे गच्छामः शीङ् धातुः अस्ति तर्हि मीना महोदय पठतु शीङ् स्वप्ने इति धातुः.
शीङ् स्वप्ने इति धातुः शीङ् सारधातुके गुणः नूतनसूत्रं शीङ् धातोः गुणः भवति सारुधातुकप्रत्यये परे. अनेन सूत्रेण शीङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम् अतः अत्र ईकारः स्थानी भवति. शीङः षष्ट्यन्तं सारुधातुके सप्तम्यन्तं गुणः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङः अङ्गस्य गुणः सारुधातुके. यतोपि शी धातुः ऐ मीन् नित् भवति ततोपि गुणः भवति सारुधातुके गुणः भवति. पठामि वा?
शीङ्गः सारुधातुके गुणः अत्र किमस्ति? शीङ्गः अङ्गस्य गुणः भवति सारुधातुकप्रत्ययपरे. तत्र कस्य गुणः भवति अत्र लिखितं नास्ति, परन्तु इको गुणवृद्धिः इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् शी इति शी धातोः इकारस्य गुणः भूत्वा एकारः भवति. तर्हि अत्र प्रश्नः उदेति यत् सूत्रस्य निमित्तं सूत्रस्य आवश्यकता का? सूत्रस्य आवश्यकता अस्ति यत् यत्र अपि प्रत्ययः अपि अस्ति तत्रापि शी इति धातोः विशेषतया गुणकार्यं भवति. सामान्यतया वयं जानीमः खलु केवलं पित् प्रत्ययः अस्ति चेत् गुणः भवति, परन्तु शीङ् धातु कृते सर्वदा पित् अस्ति वा अपित् अस्ति वा किमपि भवेत् सार्वधातुकप्रत्ययपरे अस्ति चेत् गुणकार्यं भवति. तर्हि अत्र निति च इति सूत्रेण तत्र गुणकार्यं गुणकार्यस्य बाधकता न आगच्छति. शीङ् कृते सर्वदा अपित् वा पित् वा सर्वदा गुणकार्यं भवति सार्वधातुकप्रत्ययपरे इति सूत्रस्य अतः सूत्रः विशेषतया अष्टाध्याय्यां लिखितम् अस्ति. सूत्रस्य विशेषलेखनस्य आवश्यकता का? पाणिनी वक्तुमिच्छति यत् न केवलं पित् अपि तु अपित् मध्ये अपि शीङ् धातोः गुणकार्यं भवति. अग्रे पठतु.
अपित्सु प्रत्ययेषु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः आदिश्यते तदा इति च इत्यनेन गुणनिषेधः. तदा शीङ्गसार्वधातुके गुणः इत्यनेन पुनः गुणः भवति. अत्र क्ति च शीङ्ग सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः? क्ति च इति प्रबाद्य शीङ्गसार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शीङ्गसार्वधातुके गुणः इति च इत्यस्य अपवादः इति वा? अत्र सार्वधातुके अपित्सु प्रत्ययेषु सार्वधातुकयोः गुणः भवति, परन्तु क्ति च इति सूत्रेण निषेधः साधारणतया भवति. परन्तु अत्र शीङ्गः सार्वधातुके गुणः पुनः गुणः भवति. अत्र क्ति च परयोः कृति च अपि च शीङ्ग सार्वधातुके गुणः अनयोः सूत्रयोः सम्बन्ध अपवादम् अस्ति वा इति चर्चा भवति अत्र.
अग्रे पश्यामः अत्र वस्तुतः अत्र अपवादः अस्ति न वा इति अग्रे पश्यामः. परन्तु चर्चायाः विषयः तु भवति यत् निति च इति सूत्रं वदति गुणनिषेधः करोतु, शीङ्गः सार्वधातुके गुणः वदति गुणः करोतु, तर्हि क अपवादस्य सम्बन्धः अस्ति वा तुल्यबलविरोधः अस्ति वा इति किम् अस्ति अग्रे वयं पश्यामः इति अस्ति. अस्तु.
हलादिपित्सु आत्मनेपदीधातुषु नास्ति एव. हलादिपित्सु आत्मनेपदीधातुषु नास्ति एव. किमर्थं नास्ति हलादिपित्सु
आत्मनेपदीधातुषु हलादिपित् नास्ति खलु एक अपि
पित् नास्ति. अजादिपित्सु गुणः अयादेशः अजादिपित्सु अत एव शी योगः ऐ अजादिपित्सु ऐ आवहरामहे षि योगः ऐ इषि योगः ए योगः इषि योगः ए योगः ऐ योगः इषि योगः कथं कथम् अत्र ओ इषि योगः ए योगः ऐ इषि योगः ऐ आयादेशः ऐ योगः ऐ शयै हलादि अपित्सु गुणः हलादि अपित्सु गुणः शी योगः ते गुणः भवति शे ते साधारणमेव अजादि अपित्सु साधारणं नास्ति अत्र अत्र सिंह सार्वदात्के गुणः भवति किल
सामान्यतया अपित् प्रत्यय अस्ति चेत् गुणकार्यं न भवति
न भवति
परन्तु अत्र
अत्र सिंह तत् नूतनसूत्रेण गुणः भवति अजादि अपित्सु गुणः आयादेशः षि आते षे आते समान समानसूत्रेण एव शीङ्गसावदात्के गुणः खल किल षि आते षे आते इष् ऐ आते अयादेशः शयाते
अस्तु
षि शीङ्गः रुट्
अस्तु तर्हि अत्र हा किमपि अत्र वस्तुतः किमपि जटिलं नास्ति अत्र अपित् प्रत्यय अस्ति चेत् पित् प्रत्यय अस्ति चेत् किमपि अस्ति चेत् शीङ् धातु कृते गुणकार्यं भवति सार्वधातुकप्रत्ययपरे गुणकार्यं भूत्वा तत्र योजनं अयादेशः भवति नो चेत् वर्णमेलनं भवति अस्ति अस्तु अग्रे विजया महोदय अग्रे पठतु
आं जि शीङ् धातुतः ज्ञा प्रत्यय प्रत्यय अवयवस्य स्थाने यः अत् हा ज किम् उक्तं मया ज झ फोर्त् वर्णः चतुर्थवर्णः शीङ् धातुतः ज प्रत्यय ज प्रत्यय अवयवस्य स्थाने यः अत् तस्य रुट् आगमः भवति आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य अद्य आद्य अवयवयः शिङ्गः पञ्चम्यन्तं रुट् प्रथमान्तं द्विपदमिदं सूत्रं ज्योङ्क्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः अदप्यस्तात् इत्यस्मात् षष्ट्यन्त्यस्य विभक्तिपरिमाणेन असः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शिङ्गः अङ्गात् जः अतः रुट् तत्र शिङ्गधातोः परस्य जः आगच्छति चेत् तत्र अत् आदेशः भवति रुट् इति आगमः भवति तावदेव तत्र
तर्हि किमस्ति अत्रापि सामान्यतया आत्मनेपदे आत्मनेपदेषु तत्र प्रत्यागिक सन्ति त आतां झ इति अस्ति खलु त आतां झ अस्ति तत्र आत्मनेपदेषु किं भवति झ स्थाने अत् भवति खलु अत् तर्हि तत्र झ स्थाने अत् भवति अतः प्रत्ययः भवति खलु प्रथमपुरुषबहुवचने अते लट्लकारे एकवचने अते इति भवति खलु अते झ स्थाने अत् भवति तदनन्तरम् अत भवति तदनन्तरं तत्र पित आत्मनेपदानां टेरे इति सूत्रेण तत्र टि स्थाने ए आगच्छति अते भवति तर्हि सामान्यतया लट्लकार अथवा लोट्लकार प्रथमपुरुषबहुवचने सूत्रं प्रत्ययः अस्ति अते परन्तु शीङ्घातु कृते विशेषतया लिखितम् अस्ति शीङ्गः अङ्गात् जः अतः रुट् नाम शीङ् अङ्गः अस्ति चेत् तदनन्तरं यः झ प्रत्ययस्य स्थाने यत् अत् भवति अत्र झकारपञ्चमी अत्र शीङ् पञ्चम्यन्तम् अस्ति झ इति किम् अस्ति झ पञ्चम् षष्ठीविभक्ति अस्ति तत्र किमस्ति शीङ् अङ्गस्य अनन्तरं यत् झ झ अवयव झ प्रत्ययस्य अवयवस्थाने यत् अत् आगच्छति तस्य अत् अतः षष्ठी तस्य रुट् आगमः भवति रुट् इति आगमः भवति इति अस्ति तर्हि शीङ्गो रुट् नाम तत्र शीङ्गः अङ्गात् झः अतः रुट् शीङ् अङ्गस्य अनन्तरं यत् झ अवयवस्य प्रत्ययः अस्ति तत् प्रत्ययस्य झकारस्य स्थाने यत् अत् आगच्छति तत् अत इति तस्य रुट् आगमः भवति रुट् मध्ये केवलं रेफ इति तिष्ठति अनन्तरम् उकारस्य टकारस्य इत्संज्ञावर्णः भवति स टकारस्य किं निमित्तमस्ति आद्यन्तटकितौ इति सूत्रेण टकारः अस्ति अतः आदि आगच्छति आदि आगच्छति तदा अत् इति अस्ति तस्य आदि आगच्छति नाम रयोगः अत् रते रते इति प्रत्ययः भवति तर्हि सामान्यतया प्रत्ययः अस्ति बहुवचने अते अत्र रेफस्य आदि आगमः भूत्वा प्रत्ययः भवति रते रते अतः शीङ् धातुः तदनन्तरं प्रत्ययः आगच्छति लट्लकारप्रथमपुरुषबहुवचने शी योगः रते न तु शी योगः अते अतः तदनन्तरं शी तस्य गुणः भूत्वा शीङ्गः सावधातुके गुणः इति सूत्रेण गुणः भूत्वा शे योगः रते रूपं भवति शेरते शेरते तथैव अतां लोट्लकारबहुवचने शेयोगः अतां न भूत्वा शेयोगः रतां शेरताम् इति अस्ति इति वार्ता भवति तर्हि एकवारम् अष्टाध्यायम् उद्घाटयतु षष्ठमाध्यायस्य प्रथमपादः सप्तमाध्यायस्य प्रथमपादः 7-1 पेज् नम्बर् अस्ति 119 इति अस्ति तत्र 713 पश्यतु झोन्तः अस्ति खलु सामान्यतया झोन्तः नाम तिङ्प्रत्ययेषु झ प्रत्ययस्य झकार अवयवस्य स्थाने अन्त् आदेशः भवति अन्त् भवति तथैव तिप्तझी मध्ये झी स्थाने झोन्तः इति अस्ति तत्र पश्यतु तत्र झी स्थाने अन्त् भवति तिप्तझी तत्र झी स्थाने अन्त् भवति अन्ति भवति लट्लकारे अन्ति लोट्लकारे अन्तु इति अस्ति तत्र झोन्तः इति सूत्रं तदनन्तरं सूत्रमस्ति अदभ्यस्तात् 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 इति सूत्रं किं वदति अदभ्यस्तसूत्रं वदति अभ्यस्त अङ्गमस्ति चेत् झी स्थाने झ स्थाने अन्त् न भवति झ स्थाने अत् भवति अत् अतः यत्र कुत्रापि अभ्यस्त अङ्गमस्ति यथा दा धातुः अस्ति तस्य रूपं ददन्ति न भवति तस्य रूपं ददति यतोहि तत्र तिप्तझी झी स्थाने अत् भूत्वा अति इति प्रत्ययं भवति प्रथमपुरुषबहुवचने अति लङ्लकारे लोट्लकारे अतु इति दरिद्र अपि अस्ति सम्यक् हा दरिद्रमध्ये अपि अस्ति तदनन्तरम् आत्मनेपदेषु अनतः आत्मनेपदेषु अनतः अनतः इत्युक्ते न अतः नाम अनदन्त अङ्गम् अस्ति चेत् आत्मनेपदेषु अपि झ स्थाने अत् भवति आत्मनेपदेषु अपि झ स्थाने अत् भवति अनदन्तम् अङ्गम् अस्ति चेत् अतः सामान्यतया अदादिगणे अत्र अङ्गम् अनदन्तम् अस्ति तत्र अत्र प्रत्ययं किं भवति प्रत्ययः कः अस्ति तिप्तझी झी स्थाने किं भवति झी स्थाने क्षम्यतां झी स्थाने न आत्मनेपदेषु आत्मनेपदेषु ते अते त अतां झ इति अस्ति खलु आत्मनेपदे झ इति प्रत्ययः अस्ति तत्र झ स्थाने अनदन्त अङ्गम् अस्ति चेत् यथा दादिगणे अस्ति आत्मनेपदेषु अनदन्तम् अङ्गं झ स्थाने अत् भवति अतः अत इति भवति तदनन्तरं पित आत्मनेपदानां ते इति सूत्रेण अते इति प्रत्ययः भवति त तर्हि आत्मनेपदे प्रथमपुरुषबहुवचने अते, लोट्लकार प्रथमपुरुषबहुवचने अताम् इति भवति, सर्व लङ्लकार अत इति एतत् सर्वमस्ति। तर्हि सामान्यतया अनदन्तम् अङ्गमस्ति चेत् आत्मनेपदेषु तत्र अत इति भवति, अते अताम् अत। तदनन्तरं पुनः शिङ्गोरुट् सूत्रं लिखितमस्ति, यत् शिङ्गोरुट् किं वदति, शिङ्गोरुट् वदति यत् झ स्थाने यत् अत् भवति आत्मनेपदेषु अनतः इति सूत्रेण, झ स्थाने यत् अत् भवति तस्य अतः रुट् आगमः भवति, रेफ् आगमः भवति, इत् अस्ति अतः प्राक् भवति, आगमः प्राक् भवति इति एव भवति। तर्हि सर्वत्र अत्र झ इति अवयवस्य स्थाने के के कार्याणि भवन्ति, कानि कानि कार्याणि भवन्ति, तानि सर्वाणि एकस्मिन् एव स्थले सन्ति, एकस्मिन् एव प्रकरणे सन्ति। प्रत्यादेशः सप्तमाध्यायस्य प्रथमपादः। तर्हि आगच्छन्ति वा, शीङ् कृते नूतनकार्याणि के के सन्ति, प्रथमं तु सर्वदा गुणः भवति शिङ्घ सर्वदाके गुणः इति सूत्रेण, तदनन्तरं झकार यत्र अस्ति अवयव तत्र तत्र अतः रुट् आगमः भवति इति द्वे कार्य द्वे कार्ये स्तः ये नूतने स्तः। सर्वे आगच्छन्ति वा,
मूलकृत्यं ते आते अपे से आते एतत् कार्यमेव तत्र उक्तं खलु आत्मनेपदे न भवति।
आम् आम् अते न भवति रते भवति।
महोदय अत्र अत्र रकारस्य उत्तम उपदेशे अनुनासिक अच्वा
अस्तु, इदानीं रूपाणि कुर्मः अत्र अग्रे कः अस्ति, विजया क्षम्य विजि महोदय लट् लकार करोतु शिङ्ग्
धातु शी योगः आत्मनेपदीय ते इते अन्ते से इते द्वे ये वहे महे किल महोदय
इते कथम् आगच्छति अनदन्तम् अस्ति खलु
ते क्षम्यतां ते आते अते से आते द्वे ये वहे महे ते शीं योगः ते गुणकार्यं शीं दार्व सार्वधातुके गुणः इति सूत्रेण शी योगः ते अत्र शी इति गुणं भूत्वा से से योगः ते शेते लट्लकार प्रथमपुरुष एकवचनं शेते तदनन्तरं शी योगः शी योगः एक मिनिट् आते आते किल महोदय शी योगः आते अत्र शी शी योगः आते शी एक मिनिट् शी योगः आते अत्रापि गुणं भूत्वा शे योगः आते तदनन्तरं एकार आकारमेन यान्तवान्तस्सन्ति भूत्वा शया शयाते तदनन्तरं शी शी योगः अते अत्र शीङ्गो रुट् इति सूत्रेण शी शी योगः अते इति स्थाने रुट् आगमः आदेशः भवति आगम आगमः से रेपः तदनन्तरम् अते शे शेरते इति
अग्रे मध्यमपुरुषे एकवचनं से शे एव महोदय गुणं भूत्वा शीङ् से भवति तदनन्तरं कर्णमेलनं से शे आदेशप्रत्यय इति सकारस्य मुदने शकारं भवति तदनन्तरं से शे स अत्रापि स सयाते इति सीयुगः यान्तमान्तः सन्ति भूत्वा स याते द्वे अत्रापि मेलनं स ये अत्र
किं
षि योगः एकारम् ऐ एकारं षि योगः ए गुणं भूत्वा षे महोदय षे षे ऐ ऐ इति भवति शये भवति महोदय तदनन्तरं सेयोगवः वके गुणकार्यं सेवहे सेमहे
सम्यक् अग्रे
धन्यवादः
रघुपति महोदय लोट्लकार
एकवारं ताम् आताम् अतां स्व आतां द्वम् ऐ आवहे आमहे अत्र शी शीयोग ताम् इति अस्ति इदानीं शीङ्ग सार्वधातुके गुणः इत्यनेन शेयोग तां शेताम् इति भवति शीयोग आताम् इति अत्रापि शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः भवति शे योग आताम् इदानीं यान्तवान्तसन्धिः अस्ति ए शयाताम् इति भवति अयादेशः एकादश शयाताम् इदानीं शीङ् योग आताम् अताम् इति अस्ति अत्र अत्र रूटागमः भवति शेङ्गो शीङ्गो रुट् इति रुट् रूटागमः भवति अतः
किम्
अत्र ध्वनिः आगच्छत् आगमत् अस्तु शि शियोग अताम् इति अत्र रुटागमः अतः रताम् इति भवति शी शियोग रतां शे शेयोग रतां शेरताम् इति रूपम् अपि इदानीं शियोग स्व इति अस्ति शे इदानीं शे योग अत्र शिङ्गो रुट् इत्यनेन सोरि शिङ्गः सार्वधातुके गुणः इत्यनेन शि इत्यस्य गुणः भवति शे इति भवति शेयगस्व शेस्व इदानीं तत्र सकारस्य षत्वं भवति आदेशप्रत्ययं शेष्व इति भवति तर्हि तथैव अत्र शियोग अथाम् अत्र शे अथां क्षयाथाम् इति भवति शियोगद्वम् अत्रापि गुणः भवति शीङ्गसाधके गुणः इत्यनेन शेयोगद्वं शेद्वम् इति अस्ति इदानीं शीयोग ऐ इति अस्ति अस्तु शीयोग ऐ शेयोग ऐ अस्ति इदानीं तत्र यचोयव इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अय इदानीं शयै अयादेशः शयै इति भवति अग्रे शीयोग आवहै अत्रापि शीङ्गसाधके गुणः भवति महोदय तेनैव भवति खलु अत्र सार्वतकादुपैत्यनेन न भवति वा अस्तु अस्तु तत् अस्तु शीङ्गसार्वतके गुणः इत्यनेन अत्र गुणः भवति परसूत्रमिति कृत्वा वा महोदय
प्रतिपदोक्तमपि अस्ति खलु तत्र
प्रतिपदोक्तमपि अस्तु 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 शेयोग आवहै इदानीं तत्र यान्तवान्तसन्धिः एकादश अयादेशः शयावहै शयामहै इति रूपाणि
सर्वे अवगच्छन्ति वा कथं भवति
आं जि सर्वत्र शृङ्गः सार्वधात्तिके इति गुणः इति सूत्रेण गुणः भूत्वा कार्यं करोति
अपि च बहुवचने प्रथमपुरुष बहुवचने रेफ् भवति शिङ्गोरुट् इति सूत्रम्. अस्तु, धन्यवादः महोदय. अग्रे अग्रे कः अस्ति? मदर् महोदय.
आं महोदय, लङ् लकारः अतः लङ् लुङ् लङ् लुङ्षु अडुदातः इत्यनेन अकारः आदेशः भवति अत्र. प्रथमम् आयोगः शीयोगः त शीयो शे शेत अशेत. अनन्तरम् आयोगः शे शीयोगः आताम् आयोगः शी अय आदेशः अयि शे शयतां शयातां अशयताम् शयाताम्. अनन्तरम् आयोगः शीयोगः अतः अत्र रुट् आगमः भवति श्योङ् रुट् श्योङ् इत्यनेन शीङ्गोरुट् शीङ्गोरुट् अनेन रकारः रेपः आगच्छति रथ इति भवति. अनन्तरं शे शे योगः रथ अर अशेरथ. अनन्तरं मध्यपुरुष आयोगः शीयोगः ताः अत्र गुणः भवति अशेताः अशेताः आयोगः शयोगः अय अय आगच्छति आत्तां शया शयाताम् अत्त अ
शयाताम्
अनन्तरम् आयोगः शयोगः अशियोगः द्वं गुणः भवति शे अतः अशेद्वम् अशेद्वम्. अनन्तरम् आयोगः शीयोगः इ इ अत्र गुणः भव ये गुणः भवति ये अय आदे आदेशः भवति. अनन्तरं शय शयि अशयि अशयि वा मम आयोगः शकारः तदनन्तरं यकारः अनन्तरम् इ अशयि आयोगः शीयोगः वहि अशे वहि अशे महि.
सम्यक्,
धन्यवादः.
भवतः आवर्णः अस्ति खलु अननुनासिकः आवर्णः सम्यक् अस्ति जि.
अग्रे विजया महोदय, विधिलिङ्ग्
किं मीना अस्मि अत्र.
वदतु
विधिलिङ्ग्
भवती
विजया करोतु.
अस्तु, अहं करोमि. अस्तु, तत्र तत्र शे इति प्रथमम् अस्ति, परन्तु तत्र प्रथमं विधिलिङ्ग् मध्ये ईत ईयाताम् ईरण् ईताः ईयाताम् ईद्वम् ईय ईवहि ईमहि इति अस्ति. प्रथमं तत्र प्रथमं शीङ्गः सार्वधातुक इति गुणः भूत्वा शै इति अस्ति. अनन्तरं
शै न शे
शे हा शे अनन्तरं यचो एव यावः इति सूत्रेण शै भवति. अनन्तरम् ईत इति अस्ति, अतः शयीत दीर्घं भवति. तादृशमेव तत्र शै अस्ति, अनन्तरं याताम् इति अस्ति, शै याताम्. क्रमः वा
वदतु एकवारं.
हा क्रमः शै इति प्रथमम् अस्ति.
न न क्रमः आमां क्रमः अभवत्, रूपाणि वदतु.
अस्तु अस्तु, प्रथमं तत्र शे इति वा शिङ्गः सार्वधातुके एतत् सर्वं करणीयं वा?
शे इति प्रथमम् अस्ति, रूपाणि वदतु.
शे इति अस्ति, एकनिमिषम्. अस्तु, तत्र प्रथमं शयित इति अस्ति, अनन्तरं तादृशमेव शिङ्गः सार्वधातुक इति सार्वधातुकगुणः भूत्वा शे इति अस्ति. अनन्तरं यचो एव यावः इति सूत्रेण शय इति अस्ति. अनन्तरम् ईयाताम् इति योजनेन शयि, अनन्तरम् आतां यातां शयी यातां दीर्घः दीर्घ ईकारेण सवर्णदीर्घसन्धिः भूत्वा शयी यातां वा?
वर्णदीर्घः कुतः आगच्छति?
इकारः इकारः इति शै नास्ति नास्ति, यचोयवः यचोयव यावः इति सूत्रेण शयि इति भवति. अस्तु शयि, अनन्तरम् ईयाताम् इति योजनेन शयी याताम् इति आगच्छति. अनन्तरं तादृशमेव खलु
रूपाणि एव वदतु इदानीं.
शै योगः से इति प्रथमं भवति, शिङ्गः सार्वधातुके गुणः इति भूत्वा.
अनन्तरं केवलं रूपाणि वदतु.
रूपाणि अस्तु, शैरन्
अग्रे
शयिताः शै ईताः इति अस्ति योजनेन शयिताः. अनन्तरं शयि याताम् इति अस्ति, शयीद्वम् इति अस्ति, शयीय शयीय अत्र
सम्यक् अग्रे.
अनन्तरं शयीवहि शयीमहि आहत्य आहत्य शयीत शयीयातां शयीरन् शयीताः शयीयातां शयीद्वं शयीय शयीवहि शयीमहि.
धन्यवादः. तर्हि अत्र सर्वाणि रूपाणि कथं भवन्ति इति वयं जानीमः. शेधातु कृते अपि इदानीम् अस्माकं सर्वम् अभवत्, महान् उपलब्धिः अस्ति. शीधातु कठिनधातुः अस्ति खलु, तत्र शी कृते लट् लोट् लङ् विधिलिङ्ग् रूपाणि कथं भवन्ति?
आम् महोदय, शी सर्वदा कन्फ्यूजन्
एव अस्ति. हा सत्यम्. अस्तु इदानीम् अग्रे गच्छामः. मीना महोदय, तर्हि प्रश्नः आगतः आसीत्, पठतु.
तर्हि प्रश्नः आगतः आसीत् यत् निति च इति प्रपाद्य शीघ्रसार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शीघ्रसार्वधातुके गुणः इति च इत्यस्य अपवादः इति वा? अत्र त्रयाणां सूत्राणां सूत्रद्वयमेव अस्ति. त्रयाणां सूत्राणां किति च क्षम्यताम्, अत्र त्रयाणां सूत्राणां निमित्तं किम् इति ज्ञातव्यम्. सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति, सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं ङित्वत् अस्ति. ङिति च इत्यनेन यः प्रत्ययः गित् कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धि वा भवति स्म, सः गुणवृद्धिः न भवति. शीङ्गः सार्वधातुके गुणः इत्यनेन शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे. सार्वधातुक आर्धधातुकयोः इत्यनेन इग् लक्षणगुणः क्रियते. तिथि च इत्यनेन इग्लक्षणगुणः निषेध्यते. पुनः शीङसार्वधातुके गुणः इत्यनेन इग्लक्षणगुणः क्रियते. त्रिषु अपि इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्.
तत्र सार्वधातुकार्धातुकयोः वदति यत् इगन्ताङ्गस्य गुणः करणीयं सार्वधातुकार्धातुकप्रत्यये परे. तदनन्तरं निति च वदति यत् कित् अथवा नित् अस्ति अथवा अपित् अस्ति तत्र गुणकार्यं न करणीयम्. तदनन्तरं शीङ्गसार्वधातुके गुणः आगत्य पुनः वदति न गुणकार्यं करणीयम् इति अस्ति खलु.
नाम
कथं भवति, कथं क्रमः अस्ति इति सर्वं द्रष्टव्यं. तर्हि अग्रे पठतु.
वस्तुतः शीङ्गः सार्वधातुके गुणः कुत्रापि स्वतन्त्रतया कार्यं न करोति. कुत्रचित् गुणं प्रपाद्य कुत्रचित् गुणनिषेधं प्रपाद्य च स्वकार्यं करोति. आवश्यक्यता नास्ति अत्रापि अस्ति इति कारणेन वा. शीयोगः लट् शीयोगः योगः ते सार्वधातुक आर्धधातुक इत्यनेन गुणः. इति च इत्यनेन गुणनिषेधः गुणनिषेधः. शीघसार्वधातुके गुणः इत्यनेन गुणः. शी शीयोगः लोट् शी शीयोगः ऐ सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. शीङ् सार्वधातुक आर्धधातुके गुणः इत्यनेन गुणः. अत्र
नाम शीङ्गसार्वधातुके गुणः इति सूत्रे शीङ्ग इति साक्षात् लिखितमस्ति खलु. अतः शीङ्गसार्वधातुके गुणः इति सूत्रेण एव गुणकार्यं भवति. यत्र निति च इति सूत्रेण गुणकार्यं वस्तुतः बाधितमस्ति तत्र शीङ्गसार्वधातुके गुणः आगत्य गुणकार्यं करोति. प्रथमं न भवति तदनन्तरं भवति अतः गुणकार्यं करोति. सार्वधातुकार्धातुकयोः इति सूत्रमपि सामान्यतया गुणकार्यं करोति परन्तु अस्मिन् अवसरे विशेषतया शीङ्गधातु आगत्य वदति यत् शीङ्गसार्वधातुके गुणः इति सूत्रेण कार्यं करोति. तर्हि आहत्य कुत्रापि न बाध्यमस्ति वा न बाध्य नाम गुणनिषिद्धमस्ति वा नास्ति वा शीङ्गसार्वधातुके गुण इति सूत्रेण एव गुणकार्यं करणीयम् इति वार्ता अस्ति.
समान चर्चा अभवत् किल युनो एम् अपि
तत्र साक्षात् समानं नासीत्. तत्र तु किञ्चित् भिन्नम् अस्ति तथा तत्रापि अस्ति यत् इनोयण् आगच्छति इनोयण् मध्ये किम् अस्ति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण एव गुणकार्यं भवति. यत्र गुण न भवति तत्र इनोयण् इति आगत्य कार्यं करोति. गुणस्य कोऽपि प्रश्नः नास्ति. तत्र यत्र गुणः भवति सार्वधातुक आर्धातुकयोः इति सूत्रेण तत्र तेन सूत्रेण गुणः करणीयः. परन्तु यत्र गुणः न भवति तत्र इनोयण्. अत्र किमस्ति, अत्र अस्ति यत् सर्वदा गुणः करणीयः. यत्र नाम प्रश्नः द्वे प्रश्ने स्तः यत् यत्र गुणः भवति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति अथवा शीङ्गसार्वधातुकगुण इति सूत्रेण भवति. तत्र शीङ्गसार्वधातुके गुणः इति सूत्रेण भवति यतो हि तत्र प्रतिपदोक्तं लिखितमस्ति. अपि च किमस्ति, अपि च निति च यत्र गुणकार्यं नास्ति तत्र निति च इति सूत्रेण गुणकार्यं निषिध्यते. शीङ्गसार्वधातुकगुणः इति सूत्रेण गुणकार्यं भवति. तर्हि अत्र किं करणीयं, कार्यं न करणीयं, करणीयं वा, अत्र विप्रतिषेधम् अस्ति वा अथवा अपवादः अस्ति वा, किम् अस्ति वा, एतानि प्रश्नानि सन्ति. इनोयन् मध्ये तु गुणः तु भवति एव, तत्र प्रश्नः नास्ति. तत्र भिन्नप्रश्नः अस्ति. अस्तु अग्रे गच्छामः इदानीं.
अत्र
विधि महोदय अग्रे पठतु.
अत्र अपवादस्य विषयः वा इति प्रश्नः. किमिति च शीङ्गसार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति, तर्हि अपवादः कथं वा स्यात्? एकस्थले प्राप्तम् अस्ति चेत् एव एकस्मिन् समये एकस्थले अपवादः इत्यस्य प्रश्नः उदेति. अत्र अपवादस्य विषयः एव नास्ति इति
उक्तं
किल. निरवकाशो विधिरपवात अपवादः इति अपवादस्य लक्षणम्. इप्रदिशिते परं कार्यम् इत्यस्य कृते द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते. तुल्यबलविरोधः इत्यर्थम् एकत्र प्राप्तिः अपेक्षते, अन्यत्र अन्यत्र लब्ध अवकाशयो एकत्र प्राप्ति तुल्यबलविरोधः. एकत्र प्राप्तिः अपेक्षते परशास्त्रे, नित्यशास्त्रे च. तन्त्रकशास्त्रे क्वचित् भवति, क्वचित् न भवति, किन्तु अपवादशास्त्रे निरवकाशो विधिरपवादः इति लक्षणम्. अत्र साक्षात् एकत्र प्राप्तिः भवेत् इति न उक्तम्. सामान्यतया द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्र लब्ध अवकाशो नास्ति इति स्थितौ अपवाद इति वदामः. अत्र केचन वैयाकरणाः वदन्ति यत् एकत्र प्राप्ति भिन्नविषये अपि कुत्रचित् अपवादः स्वीक्रियते. मातृभिः उच्यते किन्तु यत् वस्तुतः अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव.
अत्र एकत्र प्राप्तिः नाम एकस्मिन् स्थाने एकस्मिन् एव समये द्वयोः सूत्रयोः एकत्र प्राप्तिः इति उच्यते. तर्हि प्रथमं तु अस्ति तुल्यबलविरोधः, विप्रतिषेधः. विप्रतिषेधस्य कृते एकत्र प्राप्तेः आवश्यकता भवति यत् द्वयोः सूत्रयोः एकस्मिन् एव समये एकस्मिन् एव स्थाने आगत्य कार्यं कर्तुं
शक्तिः.
तर्हि तुल्यबलविरोधः तत्र तु एकत्र प्राप्तेः अपेक्षा भवति, तत्र परसूत्रं कार्यं करोति. तदनन्तरं नित्य इति शास्त्रे नित्यमपि अस्ति खलु, सूत्रं नित्यमस्ति चेत् तस्य तत्रापि एकत्र प्राप्तेः तत्र आवश्यकता भवति. अन्तरङ्गः अपि अस्ति, तत्र अन्तरङ्गः अपि जानामि खलु, अन्तरङ्गमध्ये यत्र अन्तरङ्गमस्ति बहिरङ्गस्य अपेक्षया तस्य कार्यं भवति. तत्र कुत्रचित् एकप्राप्तेः अपेक्षा भवति, कुत्रचित् न भवति. परन्तु अपवादकृते तु तादृशं किमपि नास्ति, नाम अपवादकृते एकत्र प्राप्तिः भवेदेव इति किमपि नास्ति. अत्र बहु केचन वैयाकरणाः वदन्ति यत् कुत्रचित् भवति, कुत्रचित् न भवति. पुष्पमाता अपि वदति यत् अपवादविषये तु एकत्र प्राप्तिः तत्र नास्ति, नाम अपवादविषये तु केवलं सरलमस्ति. अपवादस्य विषये कुत्रापि यदि निरवकाशः भवति सूत्रं, तत्र तस्य तत्र अपवादत्वं भवति, तस्य सूत्रं कार्यं करोति. नाम एकत्र प्राप्ति अस्ति न वा तस्य प्रश्नः एव नास्ति, तत्र समस्या एव नास्ति. तत्र कोऽपि सूत्रम् अत्र कार्यं न करोति चेत् निरवकाशः भवति, तर्हि तत्र अपवादः इति भवति. अपवादः भवति चेत् तस्य कार्यमेव करणीयम् इति अस्ति. तर्हि अग्रे विजि महोदय अग्रे उदाहरणं पठतु.
यथा आद्गुणः वृद्धिरेच्छि सूत्रद्वयं कृष्णयोगः एकत्र. अत्र आद्गुणः भवति अचिपरे, वृद्धिरेचि भवति एचिपरे. एकत्र प्राप्तिः अस्ति किं? मातृभिः उच्यते यत् अचिपरे इत्यनेन सर्वक्षेत्रं स्वीकृतम्, अतः आद्गुणः इत्यस्य एव प्राप्तिः. तदनन्तरम् एव आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वम्. अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रभाव्य वृद्धिरेचि प्राप्नोति.
तर्हि अत्र तत्र प्राप्तिः अस्ति न वा किमस्ति? अत्र वस्तुतः किमस्ति यत् सूत्रं निरवकाशं भवति न वा. सूत्रं निरवकाशः भवति चेत् अपवादः अस्ति. अपवादः अस्ति चेत् तस्य कार्यं करणीयम् एव. अत्र एकप्राप्तिः अस्ति न वा तस्य प्रश्नः एव नास्ति. तर्हि कृष्णयोगः एकत्रम् अत्र आद्गुणस्यापि प्रसक्तिः अस्ति. अतः सर्वदा अत्र आद्गुणः कार्यं करोति चेत् वृद्धिरेचि कुत्र कार्यं करोति? न कार्यं कर्तुं शक्नोति, निरवकाशः भवति. अतः अत्र वृद्धिरेचि एव कार्यं करोति. कृष्णयोगः एकत्रं कृष्णैकत्रम् इति, न तु कृष्णे न तु गुणः कार्यं कृष्णैकत्रम् इति तु नास्ति. अस्तु, इति अस्ति. तर्हि अत्र तर्हि प्रश्नः अस्ति यत् अपवादः अस्ति चेत् एकत्र प्राप्तेः आवश्यकता नास्ति. अपवादः अस्ति चेत् निरवकाशः भवति चेत् अपवादः एव करणीयः. अस्तु, अग्रे तत्र अग्रे लिखितमस्ति महोदय, महाभाष्यवाक्यम्.
अन्यत्र अन्यत्र लब्ध अवकाशयो एकत्र प्राप्तिः तुल्यबलविरोधः. लब्धः अवकाशः यस्य तत् लब्ध अवकाशं सूत्रं. यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशो अस्ति. अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः तर्हि इमे द्वे सूत्रे तुल्यभले इति उच्यते. अपि च समानस्थले समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परं सङ्घर्षः सः तुल्यबलविरोधः इति उच्यते. जानीमः किल तुल्यबल इत्युक्ते एकत्र एक समानकाले समानस्थले कार्यं कर्तुम् अर्हति, अतः तुल्यबलः इति उच्यते. अन्यत्र अपि अवकाशः अस्ति.
अत्र तुल्यबलविरोधः लक्षणमस्ति खलु जि? एतत्
किं
लक्षणं? किं
लक्षणं? लक्षणमस्ति तुल्यबलविरोधः किम् इति लक्षणम् अत्र उत्तरमस्ति.
अस्तु, तर्हि तुल्यबलविरोधस्य कृते अन्यत्र अन्यत्र लब्धावकाशः भवेत्, एकस्मिन्नेव स्थाने एकस्मिन्नेव समये कार्यं कर्तुम् आगच्छतः तत्र तुल्यबलविरोधः अस्ति, एकत्र प्राप्तिः. अपवादस्य कृते तु एकत्र प्राप्तेः आवश्यकता नास्ति. अपवादस्य सम्यक् कृते एकत्र आवश्यकता नास्ति. तत्र अपि कोऽपि किमपि सूत्रं निरवकाशः भवति चेत् अपवादः करणीयः, तस्य एव कार्यं भवति. एकत्र प्राप्तिः अस्ति न वा इति तस्य प्रश्नः नास्ति. अस्तु, तर्हि विप्रतिषेधे परं कार्यम् इति सूत्रेण समानकाले समानस्थाने तुल्यबलसूत्रम् आगच्छति चेत् परसूत्रस्य कार्यं भवति इति अस्ति. तर्हि सर्वदा सर्वदा केवलं परसूत्रं परसूत्रं परसूत्रम् इति अहं वारं वारं वदामि, तथा न द्रष्टव्यम्. तत्र प्रथमतया द्रष्टव्यं तुल्यबलविरोधः अस्ति न वा. तुल्यबलविरोधः इत्युक्ते किम्? एकस्मिन्नेव समये एकस्मिन्नेव स्थाने कार्यं भवति वा इति सर्वं द्रष्टव्यम्. अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति अपि द्रष्टव्यं. तत् सर्वम् अस्ति चेत् एव तुल्यबलविरोधः अस्ति, तथैव परसूत्रम् अस्ति. केवलं परसूत्रम् अस्ति अतः परसूत्रस्य कार्यं करणीयम् इति नास्ति. तत्र दोषपूर्णं भवति इति अस्ति. तर्हि सर्वदा सर्वं द्रष्टव्यं.
नियमद्वयम् अस्ति अन्यत्र अन्यत्र अपि अन्यत्रापि अपि कार्यं कर्तुं शक्नोति, अत्रापि बलमस्ति.
तथैव अन्यत्र कार्यं न कर्तुं शक्नोति चेत् तु अपवादः भवति खलु.
अपवादः भवति.
परसूत्रं परपूर्वसूत्रं किमपि वादमेव करणीयम्.
आम्,
धन्यवादः. रघुपतिमहोदय पठतु प्रकृतौ शी.
हा महोदय, प्रकृतौ शीयोग लोट् इत्यत्र शीयोग ये इति उत्तमवर्षे एकवचनम् अस्ति. शीयोग ये ऐ ऐ इति चितौ सार्वत्कादत्वयोः शीङ्गः सार्वत्को सार्वत्कै गुणः इत्यनयोः प्रसक्तिः एकत्र भवति. इत्युक्तौ एकत्र प्राप्तिः सार्वतकालोत्पयोः इति औसर्गिकशास्त्रम् अतः प्रथमतया आयाति नाम प्रक्रियायाः प्रतिपादनार्थं प्रथमतया प्रदर्श्यते तदा शीघः सार्वतके गुणः इत्यस्य प्रतिपदोक्तत्वात् बलवत्त्वं शीघः सार्वतके गुणः इति सूत्रम् अस्य कृते एव निर्मितम् इति कृत्वा अस्य अधिकारः शीयोग ऐ इदानीं शीघः सार्वतके गुणः शेयोग ऐ प्रतिपदोक्तत्वात् अन्तरङ्गस्य क्षेत्रे पठितम् अपवादस्य प्रसङ्गः नास्ति अपवादस्य प्रसङ्गः नास्ति अत्र प्रतिपदोक्तत्वम् अस्ति अतः
एतत् तर्हि अत्र यत्र पित् प्रत्ययः अस्ति नाम ऐ तत्र सार्वधातुकाधातुकयोः अपि प्रसक्तिः अस्ति शिङ्गसार्वधातुकगुणः अपि प्रसक्तिः अस्ति तर्हि केन सूत्रेण वस्तुतः गुणः भवति तर्हि अत्र शिङ्ग सार्वधातुकाधातुकयोः इति सूत्रं तु औत्सर्गिकशास्त्रम् औत्सर्गिक इत्युक्ते किम्
सामान्यशास्त्रं सामान्यमस्ति
सामान्यम् उत्सर्ग अपवाद इति अस्ति खलु उत्सर्ग इत्युक्ते सामान्यं तर्हि सामान्यशास्त्रमस्ति यत् सार्वधातुकाधातुकयोः इति सूत्रेण गुणकार्यं भवति परन्तु तथापि भवति चेत् शीङ्गसार्वधातुकगुणः इति सूत्रे साक्षात् शीङ् इति लिखितमस्ति खलु यत् शीङ् अस्ति चेत् अनेन सूत्रेण गुणः करणीयः अतः प्रतिपदोक्तत्वात् झटिति मस्तिष्के आगच्छति खलु अत्र सार्वधातुकाधातुकयोः तु लक्षणमस्ति शीङ्गसार्वधातुकगुणः मध्ये तु साक्षात् शीङ् लिखितमस्ति अतः झटिति शीङ् मस्तिष्के आगच्छति झटिति आगच्छति अतः शीङ्गसार्वधातुकगुणः इति एव सूत्रेण गुणकार्यं करणीयं तर्हि पित् प्रत्ययः अस्ति चेदपि शीङ्गसार्वधातुके गुणः इति सूत्रेण कार्यं भवति प्रतिपदोक्तत्वात् अत्र तुल्यबलविरोधः अस्ति अतः प्रतिषेधे परं कार्यम् इति मा चिन्तयतु अत्र प्रतिपदोक्तम् अस्ति अतः प्रतिपदोक्तस्य बलमस्ति प्रतिपदोक्तस्य बलम् अस्ति अतः तत्र प्रतिपदोक्तत्वात् शीङ्गसार्वधातुकगुणः इति सूत्रेण तस्य गुणमपि
इत्युक्ते किं महोदय
किं
प्रतिपदोक्तम् इति
पठितं तत्र
भवती अस्ति खलु तत्र
चित्र चैत्र आगच्छति
तथैव अस्ति अत्र साक्षात् लिखितमस्ति खलु शीङ् नाम्ना अत्र लिखितमस्ति प्रतिपदं नाम्ना अत्र लिखितमस्ति डैरेक्ट्लि हेज् इट् हेस् बीन्
स्पेसिफैड्
तर्हि तत्र शीङ्गसार्वधातुकगुणः इति सूत्रेण तत्र प्रतिपदोक्तत्वात् गुणकार्यं भवति अतः क्वित् प्रत्ययः परे अस्ति चेत् शीङ्गसार्वधातुकगुणः इति सूत्रेण एव गुणकार्यं भवति किमर्थं प्रतिपदोक्तत्वेन इति
महोदय अत्र प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पठितम् इति अत्र किमस्ति महोदय तत्र सम्यक् न अवगतं
प्रायः अत्र अन्तरङ्ग यत्र शास्त्रमस्ति प्रायः तत्र प्रतिपदोक्तस्य विषये कथनं भवति नाम अत्र अपवादः किमपि नास्ति अत्र अपवादः अस्ति वा इति प्रश्नः अस्ति भवान् किं चिन्तयति अपवादः अस्ति वा अत्र
अपवादः अपवादः नास्ति महोदय अपवादः नास्ति किम् अपवादः नास्ति अन्यत्र अत्र दत्तावकाशः अस्ति खलु अत्र एकवारम् अपवादः अन्यत्र लब्धावकाशः अस्ति वा एकवारम् अत्र अन्यत् साधकके असाधकालुकयोः गुणम् असाधकालुकयोः इत्यस्य प्रसक्तिः अस्ति शीघ्रसाधके अपि प्रत्ये परे अपि तस्य कार्यं भवति खलु तत्र
तर्हि अपि प्रत्ययेषु अपि कार्यं भवति शीघ्रसाधकगुण इति सूत्रस्य अतः तस्यापि निरवकाशः न भवति अतः अत्र कुत्रापि अपवादस्य विषयः तु नास्ति इति सूत्रम् अपि च शीघ्रसाधकगुण इति सूत्रम् उभयोः अन्यत्र अन्यत्र लब्धावकाशः भवति अतः अपवादस्य विषये तु कुत्रापि नास्ति तत्र लिखितमस्ति यत् अन्तरङ्गशास्त्रे प्रतिपदोक्तम् इति अत्र पठितमस्ति अतः तत्र प्रतिपदोक्तो नाम प्रतिपदोक्तेन एव तस्य कार्यं भवति न तु अन्य किमपि इति अस्ति तत्र तु किमपि शङ्का नास्ति. अग्रे गत्वा पठतु महोदय. अत्र इदानीम् अपि प्रत्ययश्च किं भवति?
आमां तत्र क्लेशः अस्ति.
कुत्र पठितं महोदय? अन्तरङ्गस्य क्षेत्रे पठितम् इति वदति. कुत्र
श्रीयोग लट् श्रीयोग लट् इदानीं श्रीयोगति इति अस्ति तत्र. अत्रापि सार्वतकालो इत्यस्य श्रीङ्गसार्वतके गुणः इत्यनयोः एकत्र प्राप्तिः अस्ति. अत्रापि च सार्वतकालयोः इत्यस्य औत्सर्गिकत्वात् प्रथमं प्रदर्श्यते श्रीयोगते सार्वतकालयोः इति. अत्र अपित्वात् दीपिच इत्यनेन गुणनिषेधः. यदा गुणनिषिद्धः तदा शीङ्गः सार्वत्रिके गुणः इत्यस्य प्रसक्तिः. कस्य बलेन तस्य कार्यं भवति इति प्रश्नः. अन्यत्रावकाशत्वं नास्ति नाम निरवकाशत्वं सिद्धम् इति वक्तुं न शक्यते. यतोहि लोटी प्राप्तिः जाता इति अधुना एव प्रदर्शितं. निरवकाशत्वस्य अभावात् अत्रापि अपवादस्य प्रसङ्गः न. प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव शीङ्गसार्वतके गुणः इत्यस्य प्राप्तिः ध्येयं. यत् नीति च प्रति शीङ्गः सार्वतके गुणः परशास्त्रं किति च इति 1115 शीङ्गः सार्वतके गुणः इति सप्तम अध्यायः अस्ति. परशास्त्रं किन्तु द्वयोः एकत्र प्राप्तिः नास्ति. द्वयोः एकत्र प्राप्तिः नास्ति इत्यस्मात् तुल्यबिलविरोधः नास्ति. तदर्थं विप्रतिषेधे परं कालम् इत्यस्य प्रसक्तिः नास्ति. प्रतिपदोक्तत्वादेव श्रीयोगते शीङ्गसार्वतके गुणः इति न श्येते. महोदय तत्र निपि च अपि च शीङ्गसार्वतके गुणः एकत्र प्राप्तिः नास्ति वा?
कथमस्ति एकत्र प्राप्तिः? तत्र सावधातुक आधातुकयोः इति सूत्रेण गुणकार्यं भवति सामान्यतया. निपि च आगत्य वदति गुणकार्यं न करोतु. तदनन्तरं सिंहसावतिगुण आगत्य वदति गुणकार्यं करोतु इति अस्ति खलु. एकस्मिन् समये कथा अस्ति.
अस्तु अस्तु. निपि च इति वदति खलु गुणनिषेधं करोतु इति.
हा निपि च तु वदति खलु सामान्यतया गुणनिषेधं करोतु अपि प्रत्ययः अस्ति चेत्.
तर्हि तस्य कार्यम् अस्ति भवति खलु महोदय. तत्र प्राप्तिः भवति खलु नीति चेत्
भवति. तदनन्तरं पुनः शीङ्गसावधगुणः आगत्य वदति गुणकरोतु.
ओ अस्तु. अस्तु अस्तु अस्तु.
अत्र किमस्ति पश्यतु. अहं कथं चिन्तयामि पश्यतु. शीङ्गः सावधातुके गुणः इति सूत्रं पाणिनिना किमर्थं लिखितम्? तत्र यदि शीङ्गसार्वधातुके गुणः इति सूत्रम् अष्टाध्याय्यां नास्ति एव तथापि बिट् प्रत्ययपरे अस्ति चेत् तु गुणकार्यं तदापि भवति सार्वधातुक आर्धातुकयोः इति सूत्रेण खलु. तथापि शीङ्गसार्वधातुके गुणः इति लिखितं किमर्थं? वस्तुतः तस्य आवश्यकता आसीत् यत् अपिट् प्रत्ययेषु अपि गुणः करणीयम्. अतः तस्य सूत्रस्य आवश्यकता खलु. ई सूत्रं नास्ति अष्टाध्याय्यां. तत्र पित् प्रत्यये परे अस्ति चेदपि कापि समस्या नास्ति. सार्वधातुकाधातुकयोः इति सूत्रेण गुणकार्यं करोतु. परन्तु अपित् प्रत्यये अस्ति चेत् इति अस्ति चेत् निति च इति सूत्रेण गुणकार्यं बाधितं. तथा मा भवेत्. अतः शीघ्रसार्वधातुके गुणः इति सूत्रस्य साक्षात् रूपेण लेखनम् अस्ति अष्टाध्याय्याम्. अतः सिंहसावधयुक् इति सूत्रस्य प्रथमकार्यं तु अस्ति वस्तुतः निति च इति सूत्रेण येन गुणकार्यं निषिद्धं तत् न कृत्वा सिंहसावधयुगुणः इति सूत्रेण गुणकार्यं करणीयम् इति सूत्रस्य मुख्यप्रयोजनम्. अपि प्रत्ययस्य कृते अपि एव वस्तुतः अस्ति
खलु.
अतः अत्र निति च इति लिखितमस्ति. अस्तु निति च इति सूत्रेण गुणकार्यं निषिद्धं करोतु. तदनन्तरं पुनः शीङ्गसार्वतकगुणः इति सूत्रेण गुणकार्यं करोतु येन तस्य सूत्रस्य यत् आवश्यकता अस्ति यस्य सूत्रस्य यत् अष्टाध्याय्यां स्थापनस्य यत् प्रयोजनम् अस्ति तत् प्रयोजनं साक्षात् भवेत्. प्रयोजनं समर्थं भवेत् इति. नास्ति चेत् सूत्रस्य आवश्यकता एव नास्ति खलु. तत्र पीट् प्रत्ययमध्ये गुणकार्यं करोतु तस्य कृते पाणिनिना इति सूत्रं न स्थापितं. वस्तुतः तस्य आवश्यकता अस्ति यत् अपित् प्रत्ययः अत्र अस्ति चेत् यत्र निति च इति सूत्रेण कार्यं निषिद्धं भवति तत्र निषिद्धत्वात् अनन्तरं पुनः श्रीङ्गसार्वत्रिकगुण आगत्य कार्यं करोति इति अस्ति. तदनन्तरम् इदानीं प्रश्नः उदेति यत् अस्तु पित् प्रत्ययस्य कृते अथवा इदानीं केन सूत्रेण गुणकार्यं भवति, सर्वहतुक वा अथवा श्रीङ्गसार्वत्रिकगुणः. तर्हि तत्र अपि वदति यत् तत्र प्रतिपदोक्तत्वात् श्रीङ्गसार्वत्रिकगुण इति सूत्रेण कार्यं वदतु इति भवति. तर्हि आहत्य इति पीट् प्रत्ययः अस्ति चेत् प्रतिपदोक्तत्वात् श्रीङ्गसार्वत्रिकगुणः इति सूत्रेण कार्यं भवति. अपित् अस्ति चेत् प्रथमं तु निति च इति सूत्रेण गुणनिषेधः, तदनन्तरं श्रीङ्गसार्वत्रिकगुणः इति सूत्रेण तस्य गुण पुनः गुणप्राप्तिः. अत्र तुल्यबलविरोधस्य प्रश्नः एव न आगच्छति, यतोहि एकस्मिन् एव समये कार्यं न भवति. निति च प्रथमं भवति, श्रीङ्गसार्वत्रिकगुणः अनन्तरं भवति. एकस्मिन् समये नास्ति, अतः तुल्यबलविरोधस्य प्रश्नः नास्ति. तर्हि परसूत्रं पूर्वसूत्रम् इति किमपि नास्ति. अपवादः अस्ति वा? न, अपवादः अपि नास्ति. यतोहि अत्र श्रीङ्गसार्वत्रिकगुणः इति सूत्रं न कार्यं करोति चेत् पित् प्रत्ययेषु तु कार्यं करोति एव खलु. अत्र तथैव लिखितमस्ति. अत्र अन्यत्र अन्यत्र लब्धावकाशं अस्ति नाम निरवकाशत्वं सिद्धम् इति वक्तुं न शक्यते, यतोहि लोटि प्राप्ति जाता इति अधुनैव प्रदर्शितं. तर्हि कुत्रापि श्रीङ्गसार्वत्रिकगुणः इति सूत्रस्य अपवादः नास्ति. अपवादः नास्ति अतः तथापि नास्ति. अत्र अपि प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव श्रीङ्गसार्वत्रिकगुणः इत्यस्य प्राप्तिः. ध्येयं यत् निति च प्रति श्रीङ्गसार्वत्रिकगुणः परशास्त्रं तु भवति, परन्तु द्वयोः एकत्र प्राप्तिः नास्ति, अतः तुल्यबलविरोधस्य प्रश्नः एव नास्ति. तुल्यबलविरोधस्य प्रश्नः नास्ति, अतः परसूत्रस्य अपि विषयः नास्ति. अतः केवलं प्रतिपदोक्तत्वात्, यतोहि श्रीङ्गसार्वत्रिकगुणः इति सूत्रे साक्षात् शीङ् इति नाम्ना लिखितमस्ति, अतः प्रतिपदोक्तत्वात् सर्वत्र सार्वत्रिकप्रत्ययपरे फित् अस्ति वा अपित् अस्ति वा इति अनेन सूत्रेण गुणकार्यं भवति इति एव चिन्तयतु. प्रतिपदोक्तम् अतः कार्यं भवति. प्रश्नः अस्ति वा कस्यापि?
महोदय, अत्र एतादृशसूत्रं किम् इति च इति सूत्रस्य भाधिकसूत्रम् एतादृशम् अन्ये अस्ति वा महोदय? एतत् तु सीङ् सार्वधातुके गुणः इति विशेषसूत्रम् अस्ति सीङ् इति धातु कृते. अन्ये कोऽपि सूत्रम् अस्ति वा महोदय? न महोदय,
तत्र मिदेर्गुणः अस्ति. मिदेर्गुणः अस्माभिः पठितं. मिदेर्गुणः कुत्र पठितं? दिवादिगणे. तत्र मिदेर्गुणः दिवादिगणे वस्तुतः श्यन् प्रत्ययः आगच्छति, मिद् योगः य खलु. अतः गुणः न करणीयं, परन्तु मिदेर्गुणः इति सूत्रमागत्य वदति मिद् कृते गुणः भवति. मेद्यते, यद्यपि विकरणप्रत्ययः अपि अस्ति तथैव, परन्तु तत्रापि निधिर्गुणः इति सूत्रेण
गुणकार्यं भवति. धन्यवादः.
तदनन्तरं मृजे वृद्धिः अपि तथैव अस्ति किञ्चित् इति चिन्तयामि. मृजे वृद्धिः इति सूत्रे अग्रे आगच्छति, इदानीं नास्ति, परन्तु मृजे वृद्धिसूत्रे अपि अस्ति. तत्र लिखितमस्ति यत् मृज् कृते वृद्धिः भवतु न तु गुण. तर्हि यत्र यत्र साक्षात् नाम्ना कोऽपि धातुः लिखित अस्ति तत्र प्रतिपदोक्तत्वात् तेनैव कार्यं प्रथमं करणीयं, न यतोहि तथा नास्ति चेत् सूत्रस्य का आवश्यकता? किमर्थं पाणिनिना इति नूतनसूत्रं कृतं यत्र साक्षात् लिखितं विदेर्गुणः मृजे वृद्धि? तत्र एव अस्ति, यत्र यत्र साक्षात् किमपि लिखितमस्ति तदेव करणीयम् इति अस्ति. अस्तु, तर्हि अग्रे अत्र मलर् महोदय पठतु, समापयतु. यत्र विधिः भवति,
यत्र विधिः भवति तदा निषेधो भवति, तदा पुनः विधिः. अस्य नामकरणं प्रतिप्रसवः इति उच्यते. अनेन निति च इति सूत्रस्य अर्थसङ्गोचः अपि वक्तुं शक्यते. गिति निति निति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धिः च निषिद्धः शीङ्गसार्वधातुके गुणः इत्यस्य स्थलं वर्जयित्वा अयं सिद्धान्तः अत्र प्रतिपदोक्तत्वस्य समर्थं करोति. विधि भवति तत्र निषेधः अपि भवति पुनः विधि भवति
तथैव अस्ति खलु सार्वधातुक आधातुकयोः इति सूत्रेण गुणः
भवति गुणः भवति
निति च इति सूत्रेण निषेधः भवति पुनः
शीङ्गसार्वधातुकः
पुनः शीङ्गः अतः यथा एतत् किमपि भवति पुनः भवति तदनन्तरं न भवति तदनन्तरं पुनः भवति तस्य नामकरणम् इति लिखितमस्ति प्रतिप्रसवः इति उच्यते. तर्हि अत्र प्रतिप्रसवस्य उदाहरणम् अस्ति शीङ्गः
सार्वधातुके गुणः
अत्र अपि प्रत्ययेषु तत्र प्रसवस्य उदाहरणम् अस्ति. तर्हि अत्र चिन्तयतु काम्प्लिकेशन्स् आवश्यकता नास्ति. अत्र निति च इति सूत्रं किं वदति यत् नित् कित् कित् प्रत्ययपरे इको गुणवृद्धिः न भवति एक्सेप्शन् शीङ्गसार्वधातुकगुणः इति स्थलं वर्जयित्वा इति अपि चिन्तयितुं शक्नुमः खलु. नाम निति च इति सूत्रेण कित् 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 प्रत्ययपरे इकः गुणवृद्धिः न भवति परन्तु शीङ्गसार्वधातुकगुणः इति इत्यस्य स्थलं वर्जयित्वा सर्वत्र गुणकार्यं निषिद्ध्यते वृत्तिकार्यं निषिद्ध्यते इति अपि चिन्तयितुं शक्नुमः. अत्र काम्प्लिकेटेड् करणस्य आवश्यकता नास्ति. अत्र किमपि अत्र चिन्तयतु निति च इति सामान्यतया वदति गुणनिषेधं करणीयं. शृङ्गसार्वतकीगुणः इति सूत्रम् आगत्य वदति यत् प्रतिपदेन लिखितमस्ति अतः तेन गुणकार्यं करणीयम् इति.
अत्र उदाहरणरूपेण लोटो लङ्घति इति वक्तुं शक्नोति वा? लोटो अपि किञ्चित् स्थाने लङ्घति इति भवति खलु भवतां
तत्र तत्र भिन्नं कार्यमस्ति. अत्र मा अत्र मा आनयतु अत्र किमपि केवलं शीङ्गसार्वधातुकगुणः इति सूत्रस्य प्रयोजनं किं तस्य प्रयोजनम् एव अस्ति यत् सार्वधातुकप्रत्ययपरे सर्वत्र शीङ्गस्य शीङ्गधातोः गुणः परम्
अत्र उदाहरणरूपेण स्वरूप महोदयेन एतदेव उक्तम् अत्र लोटो लङ्घति इति उदाहरणं प्रति प्रसवः इति अत्र पठितं खलु. एतत् उदाहरणरूपेण स्वरूप महोदयेन लोटो लङ्घति इति उदाहरणरूपेण कृतं तत्र प्रतिपदोक्त तस्य इति समर्थनं किमर्थमिति चेत् तत्र भवान् एतदेव उक्तं तत्र
भवता तत्र वस्तुतः लोटो लोट् इति भिन्नम् अस्ति लङ् नास्ति. तदनन्तरं लोटो लङ्वत् इति आगत्य वदति यत् लोट् लङ् एव भवति. तदनन्तरं पुनः लोट् कृते भिन्नकारणे अपि सन्ति तत्रापि प्रतिप्रसवस्य एव लक्षणं दृश्यते. सत्यम् अग्रे मल्लर् महोदय समापयतु.
आं ध्येयं यत् शीङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव अतः निचि नुलि च अस्य कार्यं नास्ति. तत्र उभयत्र अचो निति इत्यनेन वृद्धिः शायति शायकः इति अत्र शीङ्गः सार्वधातुके गुणः इति सूत्रं सार्वधातुकप्रत्यये एव भवति परे अस्ति एव भवति. आर्धधातुके इति प्रत्यये परे निचि नुलि इति अस्ति प्रत्यये अस्ति चेत् न भवति.
केवलं सार्वधातुकप्रत्ययपरे गुणकरणीयं खलु सर्वत्र न करोति. आर्धातुकप्रत्ययः अस्ति चेत् गुणकार्यं न भवति तत्र यत् कार्यमस्ति तदेव करणीयम्. अस्तु केवलं सार्वधातुकप्रत्ययपरे शीङ्गस्य गुणः भवति.
अग्रे पठनीयं वा?
अत्र अग्रे नूतनधातुः अस्ति दिधिङ् दीप्तिवेदनयोः दीप्तिदेवनयोः इति दिधिङ् धातुः अस्ति दिधिङ् धातुः अस्ति दीप्तिदेवनयोः इति अस्ति. पठतु महोदय.
दिधिङ् दीप्तिदेवनयोः इति धातुः दीप्तिः इति प्रकाशः देवनम् इति दुःखं छान्दसि वेदे आत्मनेपदि धातुः
तर्हि अत्र दीधिङ् धातु केवलं वेदे अस्ति लौकिक मध्ये तस्य नास्ति उपयोगः
अदादिगणस्य जक्षित्यादयः इति अन्तर्गणे सप्तधातवः सन्ति जक्ष् जागृ दरिद्र चकास् शास् दिदिङ् वेविङ् च जक्षित्तादेः षट् इति सूत्रेण जक्षित्तादीनां धातूनाम् अभ्यस्तसंज्ञा भवति जक्षित्यादिषु धातुषु दिदिङ् वेविङ् च स्तः किन्तु द्वयोः आत्मनेपदित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञानिमित्तं कार्यं नास्ति परस्मैपदेषु लटि लोटि लङि च तिङ् प्रत्यादेशाः सन्ति ते तु आत्मनेपदे न भवन्ति जक्षित् आदेः इति गणे अस्ति एतत् दिदिङ् इति धातु जक्षित्तादीनां धातूनाम् अभ्यस्तसंज्ञा भवति
अतः दिदिङ् धातु
अतः आम् अभ्यस्तधातु अस्ति
अभ्यस्तधातु अस्ति चेत् प्रत्ययेषु किं नूतनं कार्यं भवति
अभ्यस्तधातु आकारलोप अभ्यस् अत अभ्यस्तात् इति अत
बहु सम्यक् अदभ्यस्तात् इति सूत्रं किं कार्यं वदति
अदभ्यस्तात् इति अत् आदेशः भवति
कुत्र मलर् महोदय वदति हा मलर् महोदय अत् आदेशः कुत्र भवति
आकारस्य स्थाने भवति
न आकारस्य न झकारस्य
झकारस्य स्थाने आम्
दृश्यते कस्मिन् लकारे कस्मिन् वचने
बहु लोट् लोट् बहुवचने दृश्यते अपि च लट् लट् बहुवचने अपि दृश्यते
अपि च
लङ् 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 अपि दृश्यते
परन्तु कुत्र परस्मैपदि आत्मनेपदि
परस्मैपदि परस्मैपदि एव
यद्यपि दीधिङ् धातु अभ्यस्त अस्ति परन्तु नित्वात् आत्मनेपदी अपि अस्ति खलु अतः
दीधिङ्
धातु कृते वेविङ् धातु कृते अदभ्यस्तात् इति सूत्रस्य किमपि कार्यं न दृश्यते यतोहि आत्मनेपदी अस्ति खलु परन्तु परस्मैपदी अस्ति चेत् दृश्यते आत्मनेपदी अस्ति अतः न दृश्यते यतोहि तस्य प्रसङ्गः एव नास्ति तत्र अतः प्रत्ययः मध्ये कोऽपि भेदः न भवति प्रत्ययः तथैव दृश्यते यथा सामान्यतया अस्ति इति अवगच्छति वा
आम् महोदय
परन्तु बहु सम्यक् अस्ति एतादृशं सर्वचिन्तनं सर्वदा करणीयम् ओ अत्र अत्र अभ्यस्त अस्ति अभ्यस्त अस्ति चेत् कथं किं करणीयम् अद् अभ्यस्तात् इति सूत्रेण झकार अवयवस्य स्थाने अत् आदेशः भवति अतः परस्मैपदी लट् बहुवचने परस्मैपदी लोट् बहुवचने परस्मैपदी लङ् बहुवचने तत्र अन्ति न भवति अपि तु अति अन्तु न भवति अपि तु अतु अन्त् अन् न भवति अपि तु अत् इति सर्वं सर्वदा चिन्तनीयं तत्र यदा कुत्रापि ओ अभ्यस्तमस्ति तद् तथा सर्वदा एतत् सर्वं आटोमेटिक्लि चिन्तनं भवेत् इति अस्तु तर्हि इदानीं प्रत्यय आदेशः न भवति प्रत्ययस्य कोऽपि परिवर्तनं न किमपि परिवर्तनं न भवति अस्तु इदानीं धातु नाम अङ्गे किमपि कार्यं भवति वा इति पश्यामि मीना महोदय अग्रे पश्यतु मीना महोदय
कुत्र महोदय दीदी वेवीता वेवीतां दिदिवेवि इति धातु इडागमः इडागमः चेत् तेषां गुणः वृद्धिश्च न भवतः.
इति धातु मध्ये गुण अथवा वृद्धिः न भवति. तर्हि अस्य तर्हि नाम पित् प्रत्यये अस्ति चेदपि गुणकार्यं न करणीयम् इति.
एरनेकाचो असंयोगपूर्वस्य
समापनं नास्ति. दिधि अथवा वेवि, अतः सूत्रस्य प्रयोजनं किं, किमर्थं लिखितम्? निति च इति सूत्रेण तु भवति खलु गुणनिषेधः, परन्तु वेवितां इति पुनः प्रतिपदोक्तेन लिखितं. तस्य आवश्यकता कं, यत् कुत्रापि गुण अथवा वृद्धिः न करणीया. नाम नाम पित् प्रत्ययः अस्ति चेदपि न करणीयः. अतः तत्र पित् प्रत्ययेषु तस्य आवश्यकता, यथा शीङ्गसार्वधातुकीगुणः वस्तुतः तस्य मुख्यप्रयोजनम् अपि प्रत्ययेषु आसीत्, तत्र तथैव दिधिवेविटाम् अस्य मुख्यप्रयोजनं पित् प्रत्ययेषु, यत्र सामान्यतया गुणकार्यं भवेत् परन्तु अत्र न भवति विशेषसूत्रेण. तर्हि अष्टाध्यायम् उद्घाटयतु एकवारं. प्रथम अध्यायस्य प्रथमपादः 111 अग्रे किमस्ति?
वृद्धिराजे चतुर् गुणः, इको गुणवृद्धि.
अग्रे इदानीं गुणवृद्धिनिषेध, इको गुणवृद्धि इति सूत्रं वदति यत् इकस्थाने गुणवृद्धि. अग्रे अस्ति गुणवृद्धिनिषेधः, पठतु. प्रथमपदमस्ति न धातुलोपो
न धातुलोपो आर्धधातुके
अग्रे
इति च
अग्रे तर्हि गुणवृद्धिनिषेधस्य सूत्राणि एकस्मिन्नेव प्रकरणे सन्ति. अत्र न धातुलोप आर्धातुके, तत् आर्धातुकप्रकरणे आगच्छति. अनन्तरं निति च, कित् गित् नित् प्रत्यये परे अस्ति चेत् गुणवृद्धि न इति भवति. तदनन्तरं दिधि वेविटां, दिधि धातु, वेवि धातु, अपि त वेवि धातु, अपि च इडागमस्य विषये वृद्धि अथवा गुणकार्यं न भवति. अत्र एव लिखितं,
तत्र इडागमस्य विषये न उक्तं,
तत्र आर्धातुके आगच्छति खलु, अत्र नास्ति. तर्हि अत्र अत्र अतः सर्व अत्र लिखितमस्ति. किमपि पश्यतु कथं लिखितमस्ति अष्टाध्याय्यां, सर्वत्र चिन्तित्वा लिखितमस्ति. गुणवृद्धिनिषेधस्य सूत्राणि एकस्मिन्नेव स्थले, न धातु लोपार्धातुके, निति च, दिधिवेविता. तर्हि दिधि
न धातु लोप आर्धधातुके किं वदति तत् सूत्रं?
तदपि आर्धातुके अस्ति, आर्धातुकप्रकरणे पश्यामः.
एतत् सर्वं दीक्षितपुष्पमहोदयेन कृतं खलु जि?
न महोदय, अत्र
न न अत्र क्रमः क्रमः भवत्या एव लिखितम्
अष्टाध्यायमस्ति.
एतत् क्रमेण अस्ति वा?
पाणिनिना रेण्डम् सूत्राणि विदौट् आर्डर् न लिखितानि सन्ति, क्रमेणैव लिखितानि सन्ति. परन्तु एतत् सर्वं लिखितमस्ति खलु, यत् हेडिङ्ग् सन्ति गुणवृद्धिनिषेधः, परिभाषा, गुणसंज्ञा, एतत् सर्वं पुष्पादीक्षित महोदय
प्रथमवाक्यं पठतु. अवश्य ध्यातव्यम् इति लिखितं सूत्रपाठे अस्मिन् सूत्रात्
प्राक्यम्
अष्टाध्याय्याः सूत्रस्य क्रमं दर्शयति.
अत्र अष्टाध्यायी मध्ये अपि क्रमेण लिखितानि अस्ति सन्ति सूत्राणि.
न अत्र अत्र शीर्षकं क्रमेण दत्तं खलु, खलु शीर्षकमेव तत्र मुख्यं खलु?
न, शीर्षकं तु मातुः अस्ति, यत् गुणवृद्धिनिषेधः, परिभाषा, गुणसंज्ञा, परन्तु सूत्रक्रमः तु पाणिनेः एव अस्ति.
निषेधेन
दीधिवेविटां तर्हि दीधिवेविटाम् इति सूत्रं वदति यत् दीधिवेवि कृते गुणकार्यं वृद्धिकार्यं न
वृद्धिकार्यं निषेधः
अग्रे
दीधिवेविटां एरनेकाच असंयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्तङ्गस्य यण् आदेशो भवति अचि परे नूतनसूत्रम्
पेज् नम्बर् अस्ति अत्र 116 6477 सूत्रं किमस्ति अचिष्णु धातु ब्रुवां यत् इकारान्त उकारान् धातु अस्ति अपि च तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् इयङ् उवङ् आदेशः भवति तदनन्तरम् अग्रे पश्यतु 6481 किमस्ति अस्माकं परिचितं सूत्रमस्ति खलु तर्हि इयङ् उवङ् आदेशः न भवति अपि तु यण् आदेशः एरनेकाचो असंयोगपूर्वस्य नाम अनेकाच् धातु अस्ति अपि च असंयोगपूर्व इकारान्त अस्ति नाम किमस्ति धातु अस्ति इकारान्तं धातु अस्ति अनेकाच् अपि च तत्र अन्तिम इकारः अस्ति तस्य तस्मात् पूर्वं संयोगः मा भवेत् असंयोग अत्र अङ्गम् अस्ति खलु क्षम्यतां मया दोषः कृतः अत्र ऐरणेकाचो असंयोगपूर्वस्य अत्र अङ्गस्य विषयमस्ति धातुविषयः अङ्गस्य विषये इकारान्त अङ्गम् अस्ति अपि च अनेकात् अस्ति अपि च असंयोगपूर्वः अस्ति तत्र यणादेशः भवति नाम पश्यतु सामान्यतया किम् अस्ति इकारान् धातुः अस्ति तदनन्तरम् अजादिप्रत्ययः अस्ति चेत् इयङ् आदेशः भवति खलु
तदनन्तरम्
इनोयन् इति सूत्रं वदति इण् धातु अस्ति चेत् इण् धातु अस्ति चेत् तत्र इन् स्थाने यण् तदनन्तरम् ऐरनेकाचो असंयोगपूर्वस्य सूत्रं वदति यत् इकारान्त अङ्गं धातु न इकारान्तम् अङ्गम् अस्ति अपि च अन्तिम इकारात् पूर्वं संयोगः नास्ति अपि च अनेकात् अस्ति तर्हि तत्रापि इकारस्य स्थाने यण् आदेशः भवति अजादिप्रत्यये तर्हि दीधि पश्यतु दीधि इति अङ्गम् अस्ति अजादिगणे अस्ति खलु धातु अपि अस्ति अङ्गमपि अस्ति खलु
अनेकाच्
अस्ति वा अन्तिम इकारान्त इकारस्य इकारात् प्राक् संयोगः अस्ति वा
संयोगः नास्ति
नास्ति अतः अस्य सूत्रस्य प्रयोजनं भवति दीधि मध्ये दीधि मध्ये अजादि अपित् प्रत्ययः परे अस्ति चेत् इकारस्य स्थाने इयङ् न भवति अपि तु यण् भवति
अत्र किं प्रभेदः इनोयन् अस्ति अपि तत्र इकारस्य स्थाने येन आदेशः भवति
इनोयन् केवलम् इन् धातु कृते भवति ऐरनेकाचो संयोगपूर्वस्य वदति यत् इकारान्त अङ्गम् अपि च अनेकाच् अपि च इकारात् संयोगः नास्ति
तत्र यण् भवति वा तत्र यण् भवति वा
तत्र यण् भवति तर्हि इनोयण् ऐरनेकाचो असंयोगपूर्वस्य इति सूत्रद्वयम् अचिष्णु धातु ब्रुवां योवर्यङ् उवङ्गौ इति सूत्रस्य किमस्ति अपवादः अस्ति एतादृशमस्ति तर्हि अग्रे इदानीं समयः समाप्तः, अग्रिमरविवासरे पुनः दिधि इति कृते वयं पठामः, परन्तु दिधि मध्ये नूतनकार्याणि सन्ति. प्रथमं तु गुणकार्यं कुत्रापि न भवति, पित् प्रत्ययपरे अस्ति चेदपि गुणकार्यं न करणीयम्. तदनन्तरम् अजादिप्रत्ययपरे अस्ति चेत्, अजादिप्रत्ययपरे अस्ति चेत् इकारस्य स्थाने यण् आदेशः भवति. अपि च एकं नूतनं कार्यम् इदानीमपि अस्ति, इ वर्णयोः दीर्घव्येभ्योः तत्र किं कार्यं भवति इति अग्रे पश्यामः. त्रीणि कार्याणि सन्ति नूतनानि, अग्रे वयम् अग्रिमरविवासरे वयं पश्यामः.
समानसमये महोदय.
इदमेव अस्ति
8 to 9:30 IST. UK time will be next week. 3:30 महोदय. 3:30. अद्य 2:30. धन्यवादः.
धन्यवादः.